ओम अत श्रीराज्ञी कवचम श्री भैरव उवाच श्रीणु देवी प्रवक्ष्यामि राज्ञी कवचमुत्तमम् त्रैलोक्य विजयम् नाम दिव्यम् भोगपवर्गतम् मूलमन्त्रमयम् साध्यम् अष्टसिद्धिप्रदायकम् सर्वैश्वर्यप्रदम् लोके सर्वागमविनिश्चितम् पठनाद्धारणात् देवी महापातकनाशनम् महोत्पातप्रशमनम् मूलविद्यामनोहरम् विरूपाक्षः शिवो देवी विष्णुर्नारायणो बली ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी रत्नाकरश्च जलधीः शेषश्चानन्ततां गताः श्रीराज्ञः कवचस्यास्य पठनाद्धारणात् सदा बहुनोक्तेन किं देवी कवचस्यास्य धारणात् मर्त्योऽप्यमर्त्यतां याति राज्ञी पदमवाप्नुयात् ऋषिरस्य महादेवी ब्रह्मा छन्द उदारितं गायत्रं देवता राज्ञी मायाबीजमुदारितम् षड्शक्तिः कीलकं च कामराजो महेश्वरी भोगापवर्गसिद्ध्यर्थी विनियोगः प्रकीर्तिताः अस्य श्रीमहाराज्ञे कवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दाः श्रीमहाराज्ञी देवता ह्रीङ्बीजं सौः शक्तिः क्लीङ्कीलकम् आत्मनो वाङ्मनाः कायोपार्जितपापनिवारणार्थं महाराज्ञी प्रीत्यर्थम् पाठे विनियोगः ध्यानम् ॐ लक्ष्मीर्मै शिरः पातु ह्रीं ललाटं सरस्वती श्रीं बाला पातु मे नेत्रे त्र्यक्षरं पातु श्रुति मम राम दुर्गा पातु मे नासां क्लीं मुखं पातु शारिका सौः कण्ठं वैखरी पातु भं भुजौ पातु मे शिवा गं हस्तौ पातु मे काली भं वक्षस्त्री पुरावतु सहस्रं पातु मे मध्यं वृत्तं पार्श्वो ममावतु तै पृष्ठं पातु मे ब्राह्मी राम्नाभिं पातु वैष्णवी गैङ्कुदं पातु रुद्राणि रेङ्कटिं मे पराजिता स्वां कौमारि पातु जानु हां जङ्घेवतु चण्डिका स्वाहा गुल्फौ च वाराही ॐ पादौ नारसिंहिका विस्मारितं च यत्स्थानं यत्स्थानं नाम वर्जितं तत्सर्वं पातु मे राज्ञी मूलविद्यामयी परा वासुकिः पूर्वतः पातु नीलनागो नलेवतु दक्षको दक्षिणे पातु नेरिर्ते पद्मनायकाः कर्कोटकः पश्चिमे व्याद्वायव्यां शङ्खपालकाः कुलिकश्चोत्तरे पातु शेष ईशानमण्डले ब्राह्मी ब्राह्मे मुहूर्ते व्याद्यनादौ वैष्णवी मम रुद्राणि पातु मध्याह्ने सायं पात्वपराजिता निषादौ पातु कौमारी निशीथे चण्डिकावतु निशान्ते पातु वाराही सर्वदा नारसिंहिका असिताङ्गः क्षितेः पातु पयसोरुभैरवाः चण्डो मां पवनात् पातु क्रोधीशः पातु मानलात् उन्मत्तः सोमतः पातु भीषणः सूर्यतोवतु याजकाच्च कपालेशो व्योम्नः सङ्घारकोवतु सदा समन्ततः पातु वपुर्वसुतलं पातु मम गुरुवः पान्तु सर्वत्र दिगीशः पातु सर्वतः वृत्तत्रयं पातु नित्यं धरागेहं सदावतु त्रिचक्रं पातु भीतिभ्यो योगिनः पान्तु सर्वदा ऊर्ध्वं चाधः सदा पातु दीघ्यो रागीश्वरः शिवाः सर्वत्र सर्वदा सर्वं वपुर्भूतेश्वरोऽवतात् पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेवतु शिरसः पादपर्यन्तं रागी पञ्चदशाक्षरी इत्येवं कवचं राज्ञा मन्त्रगर्भं जयावहं त्रैलोक्यविजयं नाम दारिद्र्यभयनाशनम् सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनं महाभयहरं देवी मूलविद्यामयं परं परमार्थप्रदं नित्यं भोगमोक्षैककारणं यः पठेत् कवचं देवी रणे राजभयेक्षणात् सङ्ग्रामे सूरिपुञ्जित्वा विजयी गृहमेष्यति पठनात् कवचस्यासि राजकोपः प्रशाम्यति द्यूते धनं लभेत् द्यूते श्मशाने सिद्धिमाप्नुयात् त्रिवारं यः पठेत् रात्रौ रेतस्रावे महेश्वरी तस्य राज्ञी महाविद्या स्वप्नेऽभीष्टप्रदा भवेत् स्वयंभूकुशमयि शुद्धैः रेतस्तनोभयाङ्कितैः रसैर्भूर्जे लिखेत् वर्मा रमौ प्रातर्महेश्वरी क्षीरतन्तुभिरव्यक्तं लाक्षया वेष्टितं तथा सुवर्णगुटिकान्तस्थं पूजयेद् यन्त्रराजवत् गुटिकैः सा महाविद्या राज्ञे मूर्तिरिवापरा मूलविद्यामयी देवी कुक्षिस्था भोगदायिनी पृष्ठस्था बलदा देवी कुक्षिस्था रोगनाशिनी सर्वार्थ साधने लोके यथा भीष्ट फल प्रदा गुटिकेयं शुभाराज्ञा न देया यस्य कस्यचित् इदं कवचमीशाने मूल विद्यामयं परं सारस्वत प्रदं लक्ष्मी पुत्र पौत्र विवर्धनम् आयुष्करं पुष्टिकरं श्रीकरं च यशस्करं चतुष्षष्ट्यादि मन्त्राणां सारमादाय वर्णितम् शमशाने यः पठेत् सायं महाजिनक्रमेश्वराः स साधको महादेवी राजी पुत्रो भविष्यति इदं ते मम सर्वस्वं त्रैलोक्ये विजयाभिधं कवचं मन्त्रगर्भं च गोपनीयं स्वयोनिवात् इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीराज्ञे कवचं सम्पूर्णम्।